ॐ श्रीगुरुभ्यो नमः हरिः ॐ गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आन शृण्वन्नु तिभिः सीदसादनम् श्रीमहागणपतये नमः प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धीनामवित्र्यवतु वाग्देव्यै नमः ॐ भद्रं कर्णेभिश्रुणुयामदेवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनुभिः व्यशेम देवहितैर्यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिः 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 ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षं तत्त्वमसि त्वमेव केवलं कर्तासि त्वमेव केवलं धर्तासि त्वमेव केवलं हर्तासि सि त्वमेव सर्वं खल्विदं ब्रह्मासि त्वं साक्षादात्मासि नित्यं ऋतं वच्मि सत्यं वच्मि अवत्वं माम् अववक् तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवानुचानमवशिष्यम् अवपश्चात्ताते अवपुरस्ताते अवोत्तरात्ताते अवदक्षिणात्ताते अवचोर्ध्वात्ताते अवाधरात्ताते सर्वतो मां पाहि पाहि समन्ताते त्वं वाङ्मयस्त्वं चिन्मयः त्वमानन्दमयस्त्वं ब्रह्ममयः त्वं सच्चिदानन्दाद्वितीयोऽसि त्वं प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोऽसि sarvam jagadidam tvatto jayate. Sarvam jagadidam tvattastishthati. Sarvam jagadidam tvailayameshyati. Sarvam jagadidam tvajipratyeti. Tvam bhumirapo nalo nilo nabhah. Tvam chattvari vatpadani. Tvam gunatrayatitah. Tvam avasthat. Trayatitah. Tvam dehatrayatitah. Tvam kalatrayatitah. Tvam muladharasthitosi nityam. Tvam shaktitrayatmakah. Tvai yogino dhyayanti nityam. Tvam brahma, tvam vishnus, tvam rudras, tvam indras, tvam agnis, tvam vayus, tvam suryas, tvam chandramas, tvam brahma bhurbhuvasu varo ganadim purvamuccharja vannadim stadanantaram anusvarah paratarah ardhendulasitam tarena ruddham etattava manusvarupam gakaras purvarupam akaro madhyamarupam anusvarashchantyarupam bindurut tararupam nadasandhanam samhita sandhihi saisha ganesha vidya ganakarishihi nitrad gayatri chandaha Shri Mahaganapatir Devata Om Ganganapataye Namaha Ekadantaya Vidmahe Vakratundaya Dhimahi Tanno Danti प्रचोदयात् एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणं रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् Talambodaram shurpakarnakam raktavasasam Raktagandhanuliptangam raktapushpaisupujitam Bhaktanukampinam devan jagatkaranamachyutam Avirbhutancha srashtyadau prakritev purushat param evan dhyayati yo nityam sayogi yoginam varaha नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते स्थूलम्बोदराय कदन्ताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नमः एतदथर्वशीर्षयोधीते सब्रह्म भूयाज कल्पते ससर्वविघ्नैर्न बाध्यते ससर्वत्र सुखमेधते सपञ्चमहापापात् प्रमुच्यते सायमधियानो दिवसकृतं पापन्नाशयति प्रातरधियानो रात्रिकृतं पापन्नाशयति सायं प्रातः प्रयुञ्जानः पापो पापो भवति सर्वत्राधियानोपविघ्नो भवति धर्मार्थकाममोक्षं च विन्दति इदमथर्वशीर्षमशिष्याय न देयम् यो यदि मोहाद्दास्यति स पापीयान् भवति सहस्रावर्तनाद्यैयं काममधीते तन्तमनेन साधयेत् अनेन गणपतिमभिषिञ्चति स वाग्मी भवति चतुर्थ्यामनश्नं जपति स विद्यावान् भवति इत्यथर्वणवाक्यम् ब्रह्माद्यावरणं विद्यान्न बिभेति कदाचनेति यो दुर्वाङ्कुरैर्यजति स वै श्रवणोपमो भवति यो लाजैर्यजति स यशोवान् भवति समेधावान् भवति यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यः साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति महाविघ्नात् प्रमुच्यते महादोषात् प्रमुच्यते महापापात् प्रमुच्यते महाप्रत्यवायात् प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति य एवं वेद इत्युपनिषते भद्रं कर्णेभिश्रुणुयामदेवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुन् सस्तनुभिः व्यशेमदेवहितञ्जदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिः 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 हरिः ॐ।